इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य रोमनगरे इटली देशस्य प्रधानमन्त्रिणा जॉर्जिया मेलोनी इत्यनया सह वार्तालापं कृतवान्। उभौ देशौ द्वैपाक्षिक सम्बन्धं विशेषतः सामरिक सहभागित्वेन उन्नतिं कर्तुं निर्णयम् अकुर्वताम्। प्रधानमन्त्रिणा श्रीमोदिना उक्तं यत् उभौ देशौ भयोत्पादनं मानवतायै गभीर प्रतिरोधरूपेण पश्यतः। डीआरडीओ इति संघटनेन ड्रोन प्रक्षेपितस्य मानवरहित स्पष्टता निर्देशित प्रक्षेपास्त्रस्य परीक्षणं सम्पूरितम्। रक्षामन्त्रिणा एतद् व्यूहात्मकं सोपानत्वेन वर्णितम्। सर्वोच्चन्यायालयेन केन्द्रस्य जातिगणनायाः निर्णयस्य विरोधे याचिका अस्वीकृतम्। अपि च आईपीएल क्रिकेट क्रीडायाम् ईडन गार्डन्स् इत्यत्र मुम्बई इण्डियन्स् दलं कोलकाता नाइट राइडर्स् दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य रोमनगरे इटली देशस्य प्रधानमन्त्रिणा जॉर्जिया मेलोनी इत्यनया सह प्रतिनिधिस्तरीया वार्ता कृता, यस्योद्देश्यं प्रमुखक्षेत्रेषु भारत इटली देशयोः द्वैपाक्षिक सम्बन्धान् इतोप्यधिकं सुदृढं कर्तुमासीत्। व्यापारस्य निवेशस्य तन्त्रज्ञानस्य रक्षायाः स्वक्षोर्जायाः सामरिक सहभागित्वस्य च क्षेत्रेषु सहकारस्य संवर्धनम् एव अस्य सम्मेलनस्य केन्द्रबिन्दुः आसीत्।
पिछले लगभग साढे तीन वर्षों में मुझे कई बार प्राइम मिनिस्टर मेलोनी से मिलने का अवसर मिला है। यह भारत और इटली के बीच करीबी सहयोग और सामंजस्य को दर्शाता है। उनके नेतृत्व में हमारे संबंधों को नई गति, नई दिशा और नया आत्मविश्वास मिला है। मुझे खुशी है कि हम अपने संबंधों को अपग्रेड करते हुए स्पेशल स्ट्रेटेजिक पार्टनरशिप की घोषणा कर रहे हैं।
उभौ नेतारौ परस्पर हितस्य क्षेत्रीयस्य वैश्विकस्य च विकासेषु अपि चर्चितवन्तौ। भारत इटली देशयोः मध्ये चर्चां प्रतिबिम्बितं यत् वर्धमानं सामरिक सहभागित्वम् आर्थिक सहयोगस्य विस्ताराय जनानां सम्बन्धेषु च महत्वं प्रदत्तम्। प्रतिनिधिस्तरीया वार्तायाः अनन्तरम् उभौ नेतारौ संयुक्तं वक्तव्यं प्रदत्तवन्तौ। प्रधानमन्त्रिणा श्रीमोदिना घोषितं यत् भारत इटली देशयोः द्वैपाक्षिक सम्बन्धं विशेष सामरिक सहभागित्वेन वर्धयितुं निर्णयः कृतः। श्रीमोदी अवदत् यत् उभौ पक्षौ सहकारं वर्धयितुं विस्तृतं चर्चां कृतवन्तौ। भारत इटली नवान्वेषण केन्द्रस्य स्थापनार्थं च कार्यं कुर्वन्तौ स्तः। सः अवदत् यत् भारत इटली रक्षा औद्योगिक मार्गचित्रं सैन्योपकरणानां सह विकासस्य सह उत्पादनस्य च मार्गं प्रशस्तम्। प्रधानमन्त्री अवदत् यत् उभौ देशौ नौवहन क्षेत्रेषु पत्तनानाम् आधुनिकीकरणे, रसद क्षेत्रे नील अर्थव्यवस्थायां च मिलित्वा कार्यं करिष्यतः।
दोनों देशों के स्टार्टअप्स, रिसर्च सेंटर्स और उद्योगों को आपस में जोड़ने के लिए हम इंडिया इटली इनोवेशन सेंटर पर काम कर रहे हैं। हमारी सेनाओं के साथ साथ दोनों देशों के रक्षा उद्योगों के बीच भी सहयोग बढ़ रहा है। मैरिटाइम पावर्स के रूप में भारत और इटली के बीच करीबी सहयोग स्वाभाविक है। हम मिलकर शिपिंग, पोर्ट्स मॉडर्नाइजेशन, लॉजिस्टिक और ब्लू इकोनॉमी पर काम करेंगे।
इटली देशस्य प्रधानमन्त्री जॉर्जिया मेलोनी इत्येषा अवदत् यत् भारत इटली देशयोः सम्बन्धः विशेष सामरिक सहभागित्वरूपेण वर्धमानः अस्ति, अपि च द्वैपाक्षिक सम्बन्धाः अधुना स्वस्य पूर्णक्षमतया साधयितुं समर्थाः सन्ति। गत केषुचित् वर्षेषु भारत इटली देशयोः मध्ये सम्बन्धाः अभूतपूर्वगत्या विस्तारिताः सन्ति, अधुना च निर्णायकं स्तरम् अवाप्नोत्। प्रधानमन्त्री नरेन्द्र मोदी तथा तस्य इटली देशीया समकक्षीया जॉर्जिया मेलोनी इत्युभाभ्यां लिखिते संयुक्त लेखे उभयोः देशयोः मध्ये सम्बन्धः सौहार्दपूर्ण स्नेहात् विशेष सामरिक सहभागित्वेन विकसितः अस्ति, यस्याधारः स्वातन्त्रस्य, लोकतन्त्रस्य, भविष्यस्य कृते संयुक्तदृष्ट्याधारित मूल्येषु च निहितास्ति। उभौ नेतारौ प्रकाशितवन्तः। नेतारौ उक्तवन्तः यत् यदा वैश्विक व्यवस्थायां गहन परिवर्तनं प्रचलति तदा भारत इटली सहभागित्वं उच्चतम राजनैतिक संस्थागत स्तरेषु नियमित आदान प्रदान द्वारा दर्शितमस्ति। एकविंश्यां शताब्द्यां समृद्धेः सुरक्षां च राष्ट्राणां नूतनाशयस्य ऊर्जा परिवर्तनस्य प्रबन्धस्य सामरिक सार्वभौमत्वस्य सुदृढीकरणस्य च क्षमतायाः उपरि परस्पर समन्वयं प्रतिबिम्बयति इति उभौ उक्तवन्तौ। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। रक्षानुसन्धान विकास संघटनेन DRDO इत्यनेन देशस्य रक्षाक्षेत्राय एकं महत्वपूर्णोपलक्ष्यं साधितम्, यस्मिन् मानवरहितं वायुयानेन प्रक्षेपितं सटीक निर्देशित V3 प्रक्षेपास्त्रस्य अन्तिम विकास परीक्षणानां सफलतया सम्पादितम्। आन्ध्रप्रदेशे कुर्नूलस्य समीपे DRDO परीक्षण परिधि मध्ये परीक्षणं जातम्। रक्षामन्त्री राजनाथ सिंहः DRDO संस्थायाः अभिनन्दनं कृत्वा रक्षाक्षेत्रे स्वावलम्बनार्थं प्राप्तं व्यूहात्मकं सोपानमिति वर्णितम्। रक्षामन्त्री राजनाथ सिंहः अद्य सियोलनगरे दक्षिण कोरिया देशस्य रक्षा अधिग्रहण कार्यक्रम प्रशासनस्य मन्त्रिणा ली योंग चुल इत्यनेन सह मिलितवान्। एकस्मिन् सामाजिकान्तर्जालीये सन्देशे श्रीसिंहः अवदत् यत् उपवेशने उभौ पक्षौ संयुक्त विकासस्य, संयुक्त उत्पादस्य, संयुक्त निर्यातस्य च मार्गाणां निर्माणार्थं सहभागी प्रयासानां उपयोगाय सहमतिं प्रकटितवन्तौ। सः अग्रे अवदत् यत् द्वयोः देशयोः नवान्वेषण व्यवस्थायाः समन्वयार्थं महत्वाकांक्षि काइंड एक्स उपक्रमस्य संभावनायाः उद्घाटनस्य मार्गचित्रस्य विषये अपि विचारः अभवत्। सर्वोच्चन्यायालयेन अद्य आगामि जनगणनायां जातिगणनां कर्तुं केन्द्रस्य निर्णयस्य विरोधे याचिका अस्वीकृतम्। उक्तं च यत् अयं विषयः सर्वकारस्य नीतिक्षेत्रस्यान्तर्गतम् आयाति। मुख्यन्यायाधीशस्य सूर्यकान्तस्य नेतृत्वे पीठेन उक्तं यत् सर्वकारेण तेषां कृते कल्याणकारी उपायान् कल्पयितुम् अनुन्नतवर्गेण सम्बद्धानां जनानां संख्या अवश्यमेव ज्ञातव्या। न्यायपीठेन उक्तं यत् एतादृशं दत्तांशसंग्रहणे किमपि अनुचितं नास्ति तथा च विषयेऽस्मिन् हस्तक्षेपं कर्तुं निराकृतम्। केन्द्रीय मार्ग परिवहन राजमार्ग मन्त्रिणा नितिन गडकरी वर्येण अद्य नवदिल्ल्यां मन्त्रालयस्य हिन्दी परामर्श समितेः सभायाः अध्यक्षा कृता। सामाजिकान्तर्जालीये पटले लिखिते लेखे श्रीगडकरी वर्यः अवदत् यत् हिन्दी केवलं भाषा नास्ति, सा तु राष्ट्रस्य एकीकरणस्य प्रबल माध्यमरूपेण कार्यं करोति। केन्द्रीयमन्त्रिणा उक्तं यत् मन्त्रालयस्य अधिकतमं कार्यं हिन्दीभाषायाम् एव भवेत् इति सुनिश्चितं कर्तुं तस्य प्रयासः अस्ति। भारत ऋतुविभागेन अस्मिन् सप्ताहे उत्तर पश्चिम भारते तथा मध्यभारते तीव्रतर उष्णतरङ्गस्य स्थितेः सम्भावना प्रकटितास्ति। IMD इत्यस्यानुसारम् आगामिषु चतुर्षु दिनेषु दिल्ली, पंजाब, हरियाणा, चण्डीगढ़, ओडिशा, छत्तीसगढ़, राजस्थान, तेलंगाना, उत्तराखण्ड इत्येतेषु प्रदेशेषु उष्णतरङ्गस्य स्थितिः भवितुमर्हति। अत्रान्तरे असम, मेघालय, केरलम्, माहे, उपहिमालयीय पश्चिम बंगाल, सिक्किम, तमिलनाडु, पुदुच्चेरी, करैकल, अण्डमान निकोबार द्वीपसमूहेषु च श्वः यावत् प्रचण्डवृष्टेः अपेक्षास्ति। अन्ते क्रीडावार्तायाम्, IPL क्रिकेट क्रीडायां कोलकाता नाइट राइडर्स दलं कोलकाता नगरस्य ईडन गार्डन्स इत्यत्र मुंबई इंडियंस दलं सम्मुखीकरिष्यति। क्रीडायाः आरम्भः सायं 7:30 भविष्यति। राजस्थान रॉयल्स दलेन गतरात्रौ जयपुरे लखनऊ सुपर जायंट्स इत्यमुं दलं 7 पराजितम् इति वार्ताः।